त्रयोदशोऽध्यायः प्रारम्भः। ज्ञानम् ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनं पाशाङ्कुशवराभीतीः धारयन्तीं शिवां भजे। ॐ ऋषिर्वाच एतत्ते कथितं भूपा देवी माहात्म्यमुत्तमम्। एवं प्रभावासा देवी यजेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमहायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे। तामुपैः महाराजशरणं परमेश्वरीम् आराधितासैव नृणां भोगस्वर्गापवर्गदा। मार्कण्डेय उवाच इति तस्य वचस्तत्ता सुरथः स नराधिपः प्रणिपत्य महाभागं तमृषिं संशितव्रतं निर्विण्णोति ममत्वेन राज्यापहरणेन च। जगामसज्जस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बाया नदी पूर्णसंस्थितः। स च वैश्यस्तपस्तेऽपे देवी सूक्तं परञ्जपन् तौ तस्मिन् पुरिणे देव्याः कृत्वा मूर्तिं महीमयीम्। अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ दरतुस्तौ बलिं चैव जगात्रासृगुक्षितम्। एवं समाराधयतोऽस्तिभिः परिशैर्यतात्मनोः परितिष्ठा जगद्धात्री प्रत्यक्षम् प्राहचण्डिका। देव्युवाच यत्प्रार्थ्यते त्वया भूपत्वया च गुरुनन्दन मत्तस्तत्राप्यतां सर्वं परितुष्टा वदामि तत्। मार्कण्डेय उवाच ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात्। सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञः सङ्गमिच्युतिकारकम्। देव्युवाच स्वल्पैरहोभिन्नृपते स्वं राज्यं प्राप्स्यते भवान् हत्वारि पूनस्थलिदं तव तत्र भविष्यति। मृतश्च भूयः सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनुर्भवान् भुवि भविष्यति। वैश्यवर्यत्वयाजश्च वरोऽस्मत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति। मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी तथाभिलषितं वरम् बभूवान्तरिहिता सज्जो भक्त्या ताभ्यामभिष्टुता। एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियऋषभः सूर्याज्जन्मसमासाद्य सावन्निर्भविता मनुः। क्लीं ॐ इति श्रीमन्मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः।